एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। प्रधानमन्त्री सुशीला कार्की आगामिन फाल्गुन मासस्य एकविंशे दिवसे प्रतिनिधि सभायाः सदस्यानाम् निर्वाचनाय सर्वकारेण सम्पूर्ण पूर्व कार्याणि प्रपूरितानि सन्तीति सूचयति। सर्वकार संगठनस्य शतदिनानां पूरणस्य अवसरे ह्य देशवासिनां नामसु सम्बोधनं विदधाना प्रधानमन्त्री कार्की निर्वाचनस्य सुरक्षाया विषये सर्वविधानाम् उपायानाम् अवलम्बन पुरस्सरं शान्ति सुरक्षाया व्यवस्थापनं विहितम् अस्तीति प्रावोचत। प्रधानमन्त्री कार्की निर्वाचनं कस्यापि जय विजययोः प्राप्तेः अपेक्षयापि लोकतन्त्रेण सुशासनेन च विजयप्राप्तेः अभियानम् अस्तीत्यतः भ्रष्टाचारमुक्तस्य समाजस्य सुशासनयुक्तस्य सर्वकारस्य च आकांक्षायाः पूरणस्य वैधानिक मार्गोऽस्तीति समस्पष्टयत्। प्रधानमन्त्री कार्की सर्वकारस्य शतदिनानाम् अवधौ अन्यथा विधीयमानस्य व्ययस्य नियन्त्रणं कृत्वा वित्तीय सुशासने वस्तुगतः प्रयासः चालितः इति उदैरयत्। पदे विद्यमानावस्थायाम् अवकाशस्य प्राप्ते पश्चादपि च कतिपयैः अनधिकृतरूपेण गृह्यमाणं सौविध्यं निरस्तीकृतं जनतायाः करस्य रक्षणं च विहितमिति च असौ अवोचत्। तदवसरे प्रधानमन्त्री कार्की विगतकाले शक्तेः दुरूपयोगं कृत्वा विहितानाम् अपराधानाम् भ्रष्टाचाराणां च प्रकरणेषु अनुसन्धात्रा निकायेन सम्प्रति पूर्ण व्यावसायिक स्वतन्त्रताया रूपेण कार्यं विधीयमानम् अस्ति। दण्डनस्य प्रक्रियातः शक्तिशाली व्यक्ति पदाधिकारी वा यः कोऽपि भवतु विधिगत दण्डनात् केनापि उन्मुक्ति न प्राप्यते इति मान्यता स्थापिता अस्तीति च अगदत्। नेकपा नाम्ना नेपाली कम्युनिष्ट पार्टी इति दलेन ह्य काष्ठमण्डपे एकता सन्देश सभा आयोजितास्ति। काष्ठमण्डपस्य भ्रिकुटीमण्डपे आयोजितां सभां सम्बोधयन्तः नेकपादलस्य नेतारः देशस्य राजनीतिं संविधानं च समुचित दिशि आनेतुं निर्वाचनमेव उचित विकल्पो भवतीति अवोचन्। सभायां नेकपादलस्य संयोजकः पुष्पकमल दाहाल प्रचण्डः देशाय समुचित गतिं प्रदातुम् आगामिनः फाल्गुन मासस्य एकविंशाय दिवसाय निर्धारितं प्रतिनिधि सभायाः निर्वाचनं सम्पादनीयम् एवेति प्रावोचत्। संयोजकः प्रचण्ड जेन्जी युववर्गस्य सुशासनाय न्यायस्य च प्राप्तये च विहितमासीत् इत्यतः भ्रष्टाचारस्य विरुद्धे अभियानस्य सञ्चालनं सुशासनस्य स्थापकम् उत्पीडितजातीनां क्षेत्राणां समुदायानां च अधिकाराणां कृते योगदानस्य प्रदायकं राजनीतिकदलमेव जेन्जी युवसन्ततेः अभिभावकं भवितुम् अर्हतीति विचारं व्यक्तवान्। कार्यक्रमे नेकपादलस्य सहसंयोजकः माधव कुमार नेपालः नेतारः राजेन्द्र श्रेष्ठ जयपुरी घरतीमगर चेत्यादयश्च विचारं व्यक्तवन्तः। तात्कालिक नेकपा माओवादी केन्द्रस्य नेकपा एकीकृत समाजवादी दलस्य अन्येषां दलानां च मध्ये एकीकरणस्य पश्चात् नेपाली कम्युनिष्ट दलेन एकताया सन्देशं प्रदातुम् आराष्ट्रं विभिन्न सभाः समायोज्यमानाः वर्तन्ते। रासोपा नाम्नो राष्ट्रिय स्वतन्त्र दलस्य सभापति रवि लामिछाने वर्तमान परिस्थितौ निर्वाचनस्य विकल्पो नास्तीति विचारं व्यनक्ति। कारागारात् उन्मुक्तेः पश्चात् चितवन जनपदस्य भरतपुरवर्तिनी 24 कोठी स्थाने दलस्य कार्यकर्तृन् शुभेच्छुकाञ्च पूर्वेद्युः सम्बोधयन् सभापतिः लामिछाने जेन्जी सन्ततेः स्वप्नं पूरयितुं निर्वाचनस्य विकल्पो नास्तीति उदैरयत्। कार्यक्रमे सभापति लामिछाने नवसन्ततेः स्वप्नस्य पूरणस्य सम्बोधनाय निर्वाचनं सम्पादयितुं रासुपादलं सर्वकारस्य पक्षे सदैव दृढरूपेण स्थास्यतीति प्रतिबद्धतां व्यक्तवान्। मधेस प्रदेश सभाया सभामुख पदस्य कृते जनद्वयेन प्रत्याशिता प्रस्तुतास्ति। सप्तदलीय गठबन्धनस्य पक्षतः जनता समाजवादी दल नेपालस्य प्रमुख सचेतक पदीयेन राम आशिष यादवेन नेकपा एमाले दलस्य पक्षतः प्रदेश सभा सदस्येन त्रिलोकी प्रसादेन च ह्य प्रत्याशिता पंजीकारिता स्थिति प्रदेश सभा सचिवालयेन ज्ञापितं वर्तते। सभामुखस्य प्रत्याशिता ह्य पंजीकारितास्ति अद्य उपविश्यमाने प्रदेश सभोपवेशे पंजीकारितस्य निवेदनस्य क्रमस्य अनुसारेण प्रस्तावोऽयं निर्णयार्थं प्रस्तूयते इति मधेस प्रदेश सचिवालयेन ज्ञापितं वर्तते। संचार सूचना प्रविधि मन्त्री जगदीश खरेल कथयति नेपालस्य वैद्युताङ्कन युत नेपालस्य सम्पादनत्वेन कार्यं विद्यमानं वर्तते। द स्टार्ट अप नेटवर्क नेपाल इण्डिया नेपाल सेन्टर चेत्यनयो संस्थयो संयुक्ता योजनायां ह्य ललितपुरे आयोजिते एतत् ख्रीष्टवर्षीय सम्मेलने मन्त्री खरेल सर्वकार संगठनस्य मासत्रयस्य अभ्यन्तरे एव एआई इति कृत्रिम बौद्धिकताया नीति पार्थिकता स्थिति संसूचयन् वैद्युताङ्कनयुत नेपालस्य नीतिगत व्यवस्थाया कृते पूर्व कार्यं विधीयमानं वर्तते इति असूचयत। तदवसरे नेपालस्य कृते भारतीय पूर्व राजदूतेन इण्डिया नेपाल सेन्टर इति केन्द्रस्य अध्यक्षेण च मञ्जीव सिंहपुरी इत्यनेन प्रविधिना संसारस्य परिवर्तनं विधीयमानम् अस्तीत्यतः समयानुकूलतया यूनां बुद्धेः समुचित प्रयोगाय बलं प्रदत्तम् आसीत्। आगामिना फाल्गुन मासस्य एकविंशाय दिवसाय निर्धारितस्य प्रतिनिधिसभाया सदस्यानां निर्वाचनस्य कृते आराष्टं दश सहस्राणि सप्तषष्ट्यधिक नवशतं च मतदानस्थलानि भविष्यन्ति। निर्वाचनायोगेन सहजरूपेण मतदानस्य व्यवस्थायै अष्टाषष्ट्यधिकैकशतं मतदानस्थलानि वर्धितानि वर्तन्ते। मतदातृभ्यः प्रतिकूलस्थानेषु विद्यमानानि अप्रयुक्तानि च मतदानकेन्द्राणि निरस्तीकृत्य अनुकूलस्थानेषु एतावन्ति मतदानकेन्द्राणि वर्धितानि सन्तीति आयोगेन ज्ञापितं वर्तते। इति समाचाराः।